సూర్యోపనిషత్ తీసుకోండి.
ఓం భద్రం కర్ణేభి శృణుయామదేవా భద్రం పశ్యే మాక్షభిర్యజత్రా
ఆ
रपगन्धाः आदित्यो वै वचनादानागमन विसर्गानन्दाः आनन्दयो विज्ञानयो विज्ञानमयः आदित्यः नमो मित्राय भानवे मृत्योर्मा पाहि प्राविष्णवे विश्वहेतवे नमः सूर्याद्भवन्ति भूतानि सूर्येण पावितानि सूर्ये लयं प्राप्नुवन्ति यत् सूर्यस्वाहमेव चक्षुर्मा देवस्सहित चक्षुर्मृतपर्वतः चक्षुर्दाता दधातुनः आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नो सूर्यप्रचोदयात् सविता पश्चात्तात् सविता पुरस्तात् सवितोत्तरात्तात् सविता भवात्तात् सविता सुवतः सर्वदातिकम् सवितानोदासताम् दीर्घमायुः ओमित्येकाक्षरम् ब्रह्मा भृगेद्वे अक्षरे सूर्य इत्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि एकस्यैव सूर्यस्य अष्टाक्षरो यः सदा जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति सूर्याभिमुखो जप्त्वा महाव्याधिभयात्रमुच्यते अलक्ष्येन्नश्यति अभक्ष्य भक्षणात् कूतो भवति अगम्यागमनात् कूतो भवति पतितसङ्गभाषणात् कूतो भवति असच्च सम्भाषणात् कूतो भवति मध्याह्ने सूर्याभिमुखं पठेत् सद्योत्पन्न पञ्चमहापापात्रमुच्यते सावित्री विद्या न किञ्चिदपि न कस्मैचित् प्रशंसयेत् य एताम् महाभावः प्रातः पठति स भाग्यवान् जायते पशून् निन्दति भेदार्थम् लभते त्रिकालमेतज्जत्वा चतुशतपदनमाप्नोति हस्तादित्ये जपति स महामृत्युम् चरति स महामृत्युम् चरति ये